अथ ध्यानपारमिता नाम अष्टमः परिच्छेदः। वर्धयित्वैवमुत्साहं समादौ स्थापयन् मनः, विक्षिप्तचित्तस्तु नरः क्लेशदंष्ट्रान्तरे स्थितः।